स्वागतं, वर्गार्थं स्वागतं. श्लोकं वदामः. श्लोकम् ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यङ्करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. अस्तु. सो डिड् यु डू द गृहपाठ? यु हेव् एनी क्वश्चन्स्?
I actually went through the other document. This one, I think halfway through I stopped.
Okay, no problem. Because it's the same repetitive, right? Yeah, it's very repetitive. Once you get the hang of it, it's okay. Kim itukte pullinga stree pullinga napumsakalinga asti chet a iti agachati antima shabda. नगरी इति अस्ति नगर्यां. हस्तः हस्ते, कार्यानं कार्याने, पाठशाला यां, प्रदर्शिनी
प्रदर्शिन्यां,
स्यूतः
स्यूते.
ओके. So the others are just to build vocabulary. Okay. Right. Pushpani lata, pushpani mala, lata vrikshe, pushpani apane, grihe petikayam, lekani petikayam, nadyam. So atra we have in or on. So this is to show for both in or on the same rupam. Meenaha nadyam santi. Nadyam means in. In the river. Meenah in nadyam santi. Nauka nadyam santi. So it is above the river. On the river. The boat is on the river. So same thing here. In or on. Mukhe upanetram mukhe asti. That is on the face. So this is dantaha mukhe asti. In the mouth. Same thing here. In on. So just to show that they are the same. So atra prashnah kaha. So for every statement we have a question, kalu. So we have kaha, ka, kim, kutra. So what is the question here?
Karyalaya. So nagare asti. Santi.
Karyalaya nagare. Nagaram means nagare santi. Nagari means nagaryam santi. Nagaryam santi. Atava nagare santi. So atra, so this is the answer to some question, right? So prashnaha kaha atra?
So this is karyalaya. So...
So upari karyalayaha
kutra asti.
Kutra santi. Karyalayaha kutra santi. That is the santi. Question. That is the question. So how we ask the question here, Palam?
Palam kutra asti.
फलं कुत्र अस्ति? फलं हस्ते अस्ति. मम पुत्रः कुत्र अस्ति? मम पुत्रः तस्य कार्याने अस्ति. तस्य अथवा वेनेवर् इस् मम, समटैम्स् वी केन् आस्क् द क्वश्चन् भवतः और् भवत्याः. लैक् यु आस्क् समबडि एल्स्, भवतः पुत्रः कुत्र अस्ति? मम पुत्रः तस्य कार्याने अस्ति. अस्तु. के स्यूते सन्ति? सो दिस् इस् अ क्वश्चन् बै इट् सेल्फ्. के स्यूते सन्ति? सो दि आन्सर् इस् सम् पुल्लिङ्ग. सो वि केनाट् से यु केन् से पुस्तकम् आल्सो, बट् वि आर् लुकिङ्ग् फार् पुल्लिङ्ग bahuvachana.
Right.
So in general, you know, if for a thing, we can, so in Savsyuta, I will change it to griham. Ke grihe santi. So, you know,
putra grihe santi. Oh, putra.
Yeah, so I will remove this also. Astu. So basically, for example, Sanganakam Utpitika. Atra
kutra asti.
Sanganakam kutra asti. Sanganakam
Utpitikayam.
Utpitikayam asti.
Asti.
Swagata Maruna Bhagini.
Namaste Bhagini.
Namaste. Bhavati kutra vasati?
Aham Bangalore Nagare vasami.
Bangalore Nagare kalo. So on March 8th, March Ashtama Dinanke, America Deshayam, Daylight Savings Time iti bhavati. March 8th, from March 8th up to November.
Right.
Up to November. So if we are going to stick with the current time, then our class will be at 6 a.m. India time.
Okay.
I hope that is okay for you.
That is actually it's fine. It suits me better actually.
Excellent, Bhagini. Astu. We will continue. Astu. So we are looking at this. The Karapatram. So Karapatre asti kutra asti atava kutra santi iti prashtavyam. So we have to ask the question. Varunaha kutra santi, varunaha syute, yutake santi. Yutakam yutake santi. Avagatamba Bhagini?
पश्यामि अहम्
इदानीमेव आगच्छति खलु अस्तु अत्र
गृहकार्यं कृतवती
वा अस्तु अत्र एतत् गृहपाठे वि हेव् कुत्र अस्ति अथवा कुत्र सन्ति सो द क्वश्चन् इस् कुत्र दि आन्सर् डिपेण्ड्स् आन् द नौ पुल्लिङ्गपदमस्ति चेत् चषके ए इति आगच्छति हस्तः हस्ते स्यूतः स्यूते ग्रन्थालयः ग्रन्थालये वृक्षः
वृक्षे
अस्तु नपुंसकलिङ्गम् अपि ए एव आगच्छति गृहं गृहे मुखं मुखे युतकम् युतके कन्दुकं
कन्दुके
नगरं नगरे नगरे अस्तु पेटिका नगरं इस् नपुंसकलिङ्गं नगरी इस् आल्सो अनदर् वर्ड् फार् नगरं नगरी अस्ति चेत् नगर्याम्
ओके
सो अत्र आकारान्त स्त्रीलिङ्ग ईकारान्त स्त्रीलिङ्ग अस्ति चेत् याम् इस् द मोडिफयर् याम् आकारान्त अस्ति चेत् आकारः तथा एव तिष्ठति ओके इट् स्टेस् देर् आकारः पेटिका याम् पाठशाला याम् स्थालिका याम् उत्पीटिका याम्
उत्पीटिका याम्
कपाटिकायां लेखनीपेटिकायाम् अस्तु माला मालायां लतायां ईकारान्त स्त्रीलिङ्गपदमस्ति चेत् ईकारः गच्छति कूप्यां नगर याम प्रदर्शिनी प्रदर्शिन्यां काशी
काश्यां
समीचीनं द्रोणी
द्रोण्यां
नदी नद्यां समीचीनं सो कन् यू गिव् मी युवर् ओन् सेण्टेन्स् महोदय अण्ड् भगिनि सो प्रथमं प्रश्नः अनन्तरम् उत्तरम् अहम् आरम्भं करोमि सङ्गणकं कुत्र अस्ति सङ्गणकम् उत्पीठिकायाम् अस्ति अहं कुत्र अस्मि अहं मम गृहे अस्मि
अहं शलैसे
वदतु
पात्राणि कुत्र सन्ति पात्राणि पाकशालायां सन्ति
पाकशालायां सन्ति समीचीनं पाकशाला इत्युक्ते किं भगिनि पाकशाला
किचन्
किचन् समीचीनं अस्तु महोदय
देन् भवतः पुत्रः कुत्र अस्ति
Then answer,
मम पुत्रः कार्यालये अस्ति
समीचीनं भगिनि सम्यक् अस्तु महोदय
भवतः पुत्री पुत्र अस्ति भवतः पुत्री विद्यालये
समीचीनं महोदय आकारान्त अथवा ईकारान्तपदम् उपयुज्य वाक्यं वदतु कृपया स्थालिका पाठशाला
फलं कुत्र अस्ति फलं स्थालिकायाम्
अस्ति समीचीनम् अस्तु अग्रिमपाठः पश्यामः वा एतत् अभवत् खलु न वा सो ऐ थिङ्क् वि फिनिश् दिस् खलु
शनिवासरे
वदतु भगिनि
सो फार् देस् लैक् on Thursday or also Guruvasare.
Guruvasare.
Correct only. Okay.
Guruvasare.
And I eat, I don't remember what I eat for breakfast. So I don't, aham prata rashe. Is that correct? Madhyana bhojane and ratri bhojane.
रात्रिभोजने वा किं खादामि इति न स्मरामि न स्मरामि
ओके एण्ड् बट् द डे आफ्टर् टुमारो इस् फ्रैडे विल् बि परश्वः शुक्रवासरः परह्यः सोमवासरः
सो दि ओन्लि थिङ्ग् दट् विल् नाट् टेक् द ए एण्डिङ्ग् इस् परश्वः लैक् ह्यः आल् दट् अद्य सो विनवसे अव्ययस् विच् मीन्स् दे डु नाट् चेञ्ज् सो डु यु वाण्ट् टु गो थ्रू दिस् आर् यु कम्फर्टबल्
नो इट्स् फैन् इट्स् जस्ट् आई हैड दिस्
अस्तु
सो आई डिडन्ट् नो विच् वन् लैक् द डेस् आफ् द वीक् दे चेञ्ज्
या भानुवासरे
सप्तवादने
दट् विल् नाट् चेञ्ज् प्रातःकाले विल् चेञ्ज् बट् परश्वहे इस् राङ्ग् परश्वः एव प्रातःकाले मासे एव्रिथिङ्ग् इस् चेञ्ज्
अस्तु
अस्तु अग्रे गच्छामः वा
गच्छ
अस्तु 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 अदु अहम् एकवारं पुनः स्मरणं करोमि. प्रथमं वि इण्ट्रोड्यूस् अवर् सेल्स्, भवतः नाम किं, भवत्याः नाम, देन् वि इण्ट्रोड्यूस् अदर् पीपल् अण्ड् थिङ्ग्स्, सः एषः एषः, अण्ड् देन् क्वश्चन् कः, इफ् यु डोण्ट् नो कः का किम्, if you know and you want to verify, you add va and the answer will be either aam or na. Anantaram we have asti nasti, kutra asti veg, atra tatra anyatra sarvatra ityadi. Then another way of asking, who are you, instead of asking what is your name. So atra we can also tell what we are doing, aham grihini, अहं महिला, अहं युनो पाचिका इत्यादि, छात्रा इत्यादि. सो अहं छात्रिक, अहं छात्रा, मम नाम, सो दर् इस् अ डिफ़्रेन्स् बिट्वीन् भवान् अण्ड् भवतः, रैट्? सो दर् इस् अ डिफ़्रेन्स् बिट्वीन् सः अण्ड् तस्य. सो वि कम् टु षष्टि, दिस् अ वेरि वेरि इम्पार्टेण्ट् वन्, षष्टि विभक्ति. वेन् वि शो पोसेशन् or when we show connection between things and people, like here is a book, pustakasya nama, there is a boy, balakasya nama, balakasya amba ityadi, and we have done this one. Anantaram kriya padani, ti, me and tu ending, avashyakam mastu, bahuvachana roop, then संख्या, संख्या अनन्तरं समयः, समयः अनन्तरं बहुवचनरूपं. सो इफ् यु हेव् एनी क्वश्चन्स् प्लीस् लेट् मी नो. सो अत्र बहुवचनरूपं पुल्लिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग, अनन्तरम् अत्र सर्वनामपदानि, सः तौ ते, सा ते ताः, तत्ते तानि. सो इफ् यु नो दिस् एव्रिथिङ्ग् एल्स् विल् फाल् इन् टु प्ले. सः तौ ते, सा ते ताः, तत्ते तानि. एकवचनं भवान्, भवन्तः, भवती, भवत्यः, अहं, वयं. प्रश्नः सन्ति वा? न इति मन्ये. पठति, पठन्ति, पठतु, पठन्तु, पठामि, पठावः, एतानि विशेष पदानि. करोति, कुर्वन्ति, शृणोति, शृण्वन्ति, ददाति, ददति, जानाति, जानन्, शक्नोति, शक्नुवन्ति, शक्नुमः, शक्नोमि, शक्नुमः. सो अत्र मह 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 इति आगच्छति, अत्र अन्ति अन्ति अन्ति. अस्तु, अनन्तरं कति इति अन्यप्रश्नः. कुत्र, इदानीं कति, कति इति प्रश्नस्य उत्तरं संख्या आगच्छति, पञ्च, षट्, अष्ट, सप्त इत्यादि. कति सन्ति एव प्रश्नः भवेत्, ओके? नेवर् अस्ति, सर्वदा बहुवचनरूपमेव. अनन्तरं कुत्र, कुत्र अस्ति, पुस्तकं कुत्र अस्ति, स्यूते अस्ति. सो अत्र एव खलु. सो अनन्तरं कदा, कदा इति पद, कदा इति प्रश्नः अस्ति चेत् वादनम् अथवा वासरः अथवा कालः, प्रातःकाले, सायङ्काले, भानुवासरे, पञ्चवादने इत्यादि, षड्वादने, दशवादने, प्रातःकाले, मध्याह्ने. अनन्तरम् अद्य, ह्यः, परह्यः, श्वः, परश्वः, प्रपरश्वः. अस्तु, इदानीं वयम् अत्र स्मः, वि आर् हियर् टुडे. सो अत्र वि काल् इट् शिष्टाचारः. शिष्टाचारः इत्युक्ते नार्मल् एटिकेट् फार्म्. वेन् वि सी पीपल् वि से हलो. सो अत्र वि से हरिः, ओम्, सुप्रभातम्, सुप्रभातम्. सो Do you want to read? So we will explain as we go along. Mahodhi, arambam karoti va?
So you want me to start with Harihi Om?
Harihi Om. Harihi Om.
Hari Om, Suprabhatam, Namaste Shriman, Swagatam, Agachatu, Upavishatu.
Astu. So Atra, Atra Sriman iti asti. So Sriman is a Sambhodana Rupa. So when we talk about other people, you say Sriman. Like Suprabhatam asti, kuru Sriman Venkata Natharyaha. Like that. But when you talk directly, we say Sriman. Eva. Okay, I just want to check. Somebody has come or not? No. Oh. Aruna Gatva Agachati. Just
in the problem with
the Astu. So Atra, we see he's asking Sarvam Kushalam Va iti. Sarvam Kushalam Va. So it is a general statement asking, is everything fine? So here there is no lingam. Okay, although it shows as a napumsakalingam, you are not addressing anybody in particular. You're not saying Bhavan or Bhavati. Okay, we just ask Sarvam Kushalam Va. So the answer is Aam Sarvam Kushalam. Okay. Parantu, if I want to ask Mahodaya, Krishna Mahodaya, if I want to ask you, Aham Bhavan Kushaliva. Okay, so I have to ask you, Bhavan Kushaliva. Okay. So this Kushali is the same like Vidyarthi.
Okay,
Vidyarthi is a pullinga word. It's not an ikaranta strilinga padam. Because the Moola Rupam for Vidyarthi is Vidyatin.
Right.
Similar to, like, he is a Swami. The Moola Rupam is Swamin. Yogi. Moola Rupam is Yogin. Okay, so similarly, Kushalin is the Moola Rupam. So for a pullinga person, I ask, Bhavan Kushaliva. Okay. So for Vidyarthi, Vidyarthi is a male student, Chatraha. So for a female student, what will we say? Vidyarthi is a male student.
Vidyarthini.
Astu. Vidyarthini. Vidyarthi, Vidyarthini. Swami, Swamini. Yogi, Yogini. Yogini. Astu. Similarly, Bhavan Kushali Va. So for Strilingam, Katam Vadamaha, Bhavati,
Kushalini
Va. Kushalini. Kushalini Va. So, Bhavan Kushali Va. He will say, Aham Kushali. So for Strilingam, Bhavati Kushalini Va. And what will she say? Aham Kushalini. Aham Kushalini Asmi. That's what she will say. Astu. So here, that is not discussed here. Okay. Astu. Aam Kushalam. Bhavan Etat Pustakam Svikarotu. Avagatam Kalo. Etat Pustakam Svikarotu. Astu. Katam Asti Etat Pustakam. Samichinam Asti. So this is another new question. Katam. Kushalam va, Kushalini va, Kushali va. So here it is katam. Katam means how. Katam asti etat pustakam. How is this book? Samichinam asti. Bhavan api patatu. Astu. Bhagini patati va? Astu iti.
Astu. Anantaram patami. Aham gachami. Atishatu, paniyam svikarotu,
astu.
Kshamyatam, mastu.
Mastu. So here, अस्तु भगिनि, तिष्ठतु इत्युक्ते स्टाण्ड् आर् वेट्. सो अत्र इट् इस् वेट् बिकास् यु सेयिङ्ग् अहं गच्छामि. सो यु सेयिङ्ग् तिष्ठतु. तिष्ठतु मीन्स् वेट्. पानीयं मीन्स् संथिङ्ग् टु ड्रिङ्क्. पानीयं स्वीकरोतु. क्षम्यतां मास्तु. यु से नो ऐ डोण्ट् वाण्ट्. सो बट् दे आर् डूयिङ्ग् सम् अग्रेसिव् हास्पिटालिटि हियर्. किञ्चित् स्वीकरोतु. And then the other person gives him. Astu. Dhanyavadaha. So, atra sharkara adhika asti. Kimartam adhika iti asti? Adhika. Because sharkara is akaranta strilinga. It is a strilinga padam. Sharkara adhika. Supposing it is jalam. How will this adhika change? जलम् अधिकम् अस्ति. अधिकम् अस्ति. जलम् अधिकम् अस्ति. शर्करा अधिका अस्ति. सो दिस् किल मीन्स् इस् इट् नाट्. दट्स् वाट् इस् मीन्स् किल. अधिका अस्ति किल. वि केन् आल्सो से खलु. वि केन् आल्सो से ननु. ओके, किल, खलु, ननु. Chinta master means don't worry. Chinta means worry. Don't worry. He drinks it. Aham agachami namaskara. So these are the new words here. Harihi om, suprabhatam, swagatam, kshamyatam, namaskara, chinta master. Anything else? Any questions? Okay. So,
no,
so, astu. So, here are some more. Okay. Here are some more common words. Okay. Namaste. Atava namaskaraha. Atava namo namaha. Or harihi om. So you can say any of these. Swagatam, suprabhatam, shubha madhyahnam, madhyahnam, shubha sandhya, good evening, shubha atava shubha sayam, shubha ratrihi, kripaya, please, dhanyavadaha, kshamyatam, sorry, or excuse me. Chinta mastu, don't worry, it's okay. Astu, okay. Mastu, mastu is actually don't want or do not or something. Aam, na, bahu samyak, very good. Samichinam, sadhu, uttamam, mamadeva, instead of saying, oh my God, mamadeva, shubhashayaha, best wishes. Abhinandanani, congratulations. Milamaha, see you. Punar Milamaha, see you later. So, nothing is new, Kalo. This is just a collection of things. Any questions?
No, Bhagini.
Astu. Astu, tarhi agre gacha mahava?
Aam, gacha
mahava. Astu. Atra, the prashnah asti kutra gachati. Purvam kutra asti iti patamah vayam. Kutra asti grihe asti, patashalayam asti, utpitikayam asti iti. Kutra asti atra kutra gachati iti. Kutra gachati iti prashnah asti chet. So all these words will take the makara ending. So everything will be shown in the ending. Aham vidyalayam gachami. Granthalayah. Granthalayam.
Granthalayam.
Yam gachami. Granthalayam. Devalayah. देवालयम् कार्यालयः
कार्यालयम्
आपणः
आपणम्
रेस्थानकम् रेस्थानकम् एव बिकास् इट्स् आल्रेडि हेस् द मकार एण्ड् सो इट् विल् बि रेस्थानकम् चित्रमन्दिरम्
चित्रमन्दिरमेव
उद्यानम् प्रदर्शिनी विल् बिकम् प्रदर्शिनीम् अस्तु सो लेट्स् गो टु अवर् होम्वर्क् हियर् सो लेट्स् अस्यूम् दट् दीस् आर् आल् प्लेसस् भवती कुत्र गच्छति अहं नगरीं गच्छामि अथवा नगरं गच्छामि पाठशालां गच्छामि अस्तु काशीं गच्छामि काशीं गच्छामि अस्तु नदीं गच्छामि अस्तु सो अत्र सो इट् इस् यूस्ड् नाट् ओन्लि फार् वेर् यु आर् गोयिङ्ग् ओके वि आल्सो यूस् द मकार एण्डिङ्ग् वेन् वि आर् लुकिङ्ग् अट् आब्जेक्ट्स् वाक्ये वि हेव् कर्तृपदं दट् इस् बालकः गच्छति इति अस्ति चेत् बालकः कर्तृपदं दट् इस् द सब्जेक्ट् ही इस् द कर्ता ही इस् द वन् डूयिङ्ग् दि एक्षन् सो ही इस् द कर्तृपदम् ओके सो गच्छति इस् द क्रियापदम् That is the action. That is done. Kriyapadam. Balakah vidyalayam gacchati. Vidyalayam is the karma padam. Karma padam. So the karma is the object of the action. So the action asti gacchati iti. So what is the objective of his going? is to go to the karyalayah or patashala vidyalayah kimapi so the object will take the makara to show that is the goal of the action avagatam
aam bhagini
astu so this continues for other verbs also उदाहरणं स्वीकरोमि सो वाट् इस् दि आब्जेक्ट् आफ् दिस् आफर् स्वीकरोमि वाट् डू ऐ वाण्ट् टु टेक् सपोसिङ्ग् ऐ वाण्ट् टु टेक् स्यूतः ओके स्यूतः अस्ति अहं स्यूतं स्वीकरोमि ओके स्थालिका अस्ति स्थालिकां स्वीकरोमि ओके सो इट् इस् नाट् जस्ट् स्वीकरोमि मेनि मेनि वर्ड्स् फाल् अण्डर् दिस् लैक् पश्यति अहं ग्रन्थालयं पश्यामि ऐ सी द लैब्ररि ग्रन्थालयं पश्यामि ग्रन्थालयं गच्छामि ओके हौ अबौट् उत्पीठिका हौ विल् यु से दर् इस् अ उत्पीठिका ऐ सी द उत्पीठिका
उत्पीठिकां
सी ऐ सी उत्पीठिका अस्ति
उत्पीठिकां
पश्यामि. अस्तु. सो सो वेन् वि से उत्पीठिका अस्ति, उत्पीठिका इस् द सब्जेक्ट् बिकास् वि आर् टाकिङ्ग् अबौट् उत्पीठिका. करेक्ट्? उत्पीठिका अस्ति. उत्पीठिकां पश्यामि मीन्स् अहम् उत्पीठिकां पश्यामि. सो देन् बिकास् वि आड् द मकार, सो नौ द सब्जेक्ट् हस् टर्न्ड् इन् टु आब्जेक्ट्. उत्पीठिकाम् ओके अण्डर्स्टाण्ड् देट्. अस्तु एकनिमिषम्. सो अत्र सो आल् दीस् डिफ़्रेण्ट् वर्ड्स् विल् हेव् द कर्मपदम्. सम् वर्ड्स् विल् नाट् हेव् कर्मपदम्. फार् एक्साम्पल् बालकः हसति. So if you ask balakaha what hasati, you will not get an answer. Hello? Yeah. Supposing we say gardabaha vahati. Vahati means to carry. So if you ask the question, what is the gardabaha carry, then we get the answer bharam. Okay, so atra sarvatra we have to add the makara. Balakah vidyalayam gacchati. So for here the question is kutra gacchati. Balakah kutra gacchati, balakah vidyalayam gacchati. Astu. Sita ramam pashyati. Can you do these sentences? Balikāha chakaleha.
Balikāha chakaleham khadanti.
Balikāha chakaleham khadanti. Samichinam. Bhaktāha, Mahodaya, bhaktāha.
Devam. Bhajanti.
भजन्ति. अस्तु. भक्ताः देवं भजन्ति. गर्दभः भगिनि
वहति.
महिला
घटं नयति.
घटं नयति. सो फार् आल् दीस् वर्ब्स् वि हेव् आब्जेक्ट्स्. सो दीस् वर्ब्स् आर् काल्ड् स कर्मक धातु. सो दीस् आर् आल् धातु विच् हेस् अ कर्मपदम्. स मीन्स् विद्. सकर्मक धातु. दीस् आर् आल् सकर्मक धातु. सो अदर् धातु, सम् अदर् धातुस् डस् नाट् हेव् द केपासिटि आफ् गेटिङ्ग् कर्मपदम्. लैक् थिङ्ग्स् विद् एमोशन्. ही क्रैड्. We can say what cried, right? So, like that. So, this will be part of the homework. Pradarshini, Pradarshinim. Part, okay, so we'll do a few of this. Balakaha, Patashala. How will you say this? Balakaha?
Patashalam.
Patashalam, Gacchati. Sita?
कौसल्यां पश्यति.
कौसल्यां पश्यति. सो अत्र बालकः
Pradarshinim gachati.
Pradarshinim gachati. Sita.
Kaikeyim.
Namaskaroti. Kaikeyim namaskaroti. So, atra, when we come to a place to where somebody is going or coming, the question is kutra. Balakaha kutra gachati will be the question. Balakaha vidyalayam gachati. Balakaha vidyalayam gachati. Astu. So here Sita Ramam Pashyati. So for this the question is Kam Pashyati. So we go back here. Astu. Gopalah asti, Kumarah agachati. Gopalah Kumaram pashyati. Okay, it's very noisy in whose house? Aruna Bhagini, it's very noisy in your house. I'm going to mute you. Astu. So, atra, Gopalah... Gopalah asti, Kumarah agachati, Gopalah Kumaram pashyati. Understand that? Gopalah Kumaram pashyati. So automatically Gopalah is looking at Kumar. So Kumar becomes the object of being looked at. Avagachati kalu? Gopalah Kumaram Pashyati. So now we come to Sarvanama Padam. Okay. So Gopalah Asti, translate that to Saha Asti. Kumarah Agachati, Saha Agachati. So here Gopalah Kumaram Pashyati. Saha Tam Pashyati. So whenever we have a karma padam, that will become tam. Ava. Avagatam or no? Saha tam pashyati. So atra kartru padam is the subject. Kaha asti atava agachati saha. Saha asti, saha agachati. Gopalah asti, gopalah saha asti, saha agachati. Karma padam. Saha kam pashyati. So the question is kam now. Saha kam pashyati, saha tam pashyati. Okay. So the same thing for Napumsakalingam. For Napumsakalingam, there is no change between. So this is called Dvitiya Vibhakti. Okay. So the Pratama Vibhakti is the subject. So far we have learned three. Pratama Vibhakti is the subject. And then when we show connection, like Sambandha Suchaka Vakyam, that is Shashti Vibhakti, like Ramasya, Sitayaha, Sasya, Kasya, Kasyaha. That is Shashti Vibhakti. And then the A and the Yam ending. Kutra Asti for location and time. Vadane, Pratakale. That is Saptami Vibhakti. So we have learned Pratama Vibhakti, Shashti Vibhakti, Saptami Vibhakti. Now we are learning Dvitiya Vibhakti. So, pull in Akaranta Pullinga. Saha will become Tam. Kaha will become Kam. Okay? So, it's the same pattern. Am ending. Saha will become Tam. kaha will become kam. For napumsakalingam, there is no change. Tat, tat, kim, kim, eva. Palam patati, palam svikaromi. Tat patati, tat svikaromi. Okay, if you have any questions, prashna asti chet prichato. If you don't ask, I'm assuming you are following. Astu. Kim patati, tat patati. Kim svikaromi, tat svikaromi. Okay, there is no change. The kaha became kam. Here kim stays as kim. Saha became tam. Here tat stays as tat. Same thing like palam stays as palam. Astu. So here sarala asti. Kavita asti, sarala kavitam patate. Sarala, sa tam patate. So here, saha tam pashyate. So, sa became tam. Ka patati, sa patati. Sa kam patati, sa tam patate. So kavitam is replaced by tam. Okay. Astu. Same thing for aham. Aham will become mam. Mam pashyatu. Aham asmi mam pashyatu. Kartrupadam. Kaha likaha atava ka, because I can be male or female. Kaha ka likati aham likami. Karma padam. Padmini kam vadati. To whom is Padmini talking? Padmini is talking to me. Sa mam vadati. Okay. So aham will become mam. I know it's a lot to digest, right? Bhavan will become bhavantam. Kaha kridati, bhavan kridati. Aham kam ahvayami, because bhavan is a pullinga padam. So it is kam. Kam ahvayami, aham bhavantam ahvayami.
Bhavantam is singular only, one person only, right?
Aam.
Okay.
Astu. Bhavati nrityati. Now for Bhavati. Bhavati nrityati. Saha Bhavati prashansati. Prashansati means to praise. He praises you. Ka nrityati, so bhavati is ka. Ka nrityati, bhavati nrityati. Saha, kam prashansati, because bhavati is strilinga. Here it is pullinga, so kam. Bhavati means kam. Saha kam prashansati, saha bhavati prashansati. Okay, so using this, you will have to pick the correct one here. This is also for homework. Grihapata rupena karant. Vaidyaha apanam gachati. Saha kutra gachati. Saha tatra gachati. Okay, kutra and tatra. We never say kam for gachati. It is kutra. Vaidyaha rugnam prichati. Rugnam means one who is sick. Prichati. He is asking. Saha kam prichati or kaha prichati. So for rugnam will be replaced by kam. because it is pullinga pada. Kam prichati. Saha tam prichati. So is it hard, confusing?
I think it's okay. You just need practice.
Yeah, you just need practice. Yeah. Balakah Ganesham archati. Archayati. Athava archati. Saha kam archati. So that is what you have to pick. Kam. Saha tam archati. Sachivaha karyalayam smarati. So karyalaya is pullinga, so it becomes kam because it is karyalayam. So whenever there is a ending, so you have to pick kam. Okay, it's very good. Same thing we have. Strilinga, it is kam. For shalam, aham shalam gachami. And what will we pick here? Bhavati?
Kutra gachati.
Kutra gachati. Kutra. Okay, for gachati or gachami, anything we call, what we call is gamana kriya. Whenever there is a gamana kriya, we use kutra. Astu. Same thing. Bhavan mam tadayati. Bhavan, it can be kam or kam, but not kaha. Bhavan kam tadayati. Bhavan mam tadayati. Instead of mama.
What is tadayati?
To hit.
Okay.
Patayati, to teach. Patayati. Nindami is to
blame.
Preshayati is to send. Ipatram preshayati. Abhinandati is to congratulate. Okay. So any questions in this homework?
Nobody, no.
Astu. So we go back here. Okay. So after this, we come to this conversation. Atra ekam sambhashanam asti. Sambhashanam patatu. So here again, sambhashanam patatu. So this is a karma pada. Sambhashanam. Because here the subject is bhavan. Bhavan sambhashanam patatu. It is a napumsakalinga pada. Sambhashanam is a napumsakalinga pada. So we have sambhashanam. Okay, this is Prathama Vibhakti. Sambhashanam Asti is Prathama Vibhakti. Sambhashanam Patatu, it changed to Dvitiya Vibhakti. Understand?
Yeah, Bhagini.
Yeah, okay. Astu. Because this could be a difficult Vibhakti to understand, I think, for some people. Avarane. Avarane means within brackets. Vidyamananam shabdanam. So this is the bahuvachanam of shashti. Vidyamanasya shabdasya. So vidyamananam shabdanam. So use this. Uchita rupani rikte stale likatu. So basically fill in the blanks with the proper form. So pita is telling. Putra. Read the lesson.
Patam patatu.
Patam patatu. Samichena. पुत्रः स्थले अहं पाठं पठितुं न शक्नोमि. सो हि सेयिङ्ग् ऐ केनाट् रीड्, ऐ एम् अनेबल् टु रीड्. ओके, ऐ केनाट् रीड्, पाठं पठितुं न शक्नोमि. सो वेन् एवर् वि हेव् शक्नोमि और् लैक् इच्छामि, आल् देट् एण्ड् वि हेव् अ वर्ब् बिफोर् देट्, then it has to take the tum form, patitum, kaditum, lekitum, vaktum, like that, kartum. Okay, so we'll be learning about it later. So the father is telling kimartam. Kimartam means why. Putra is telling aham. How will you say this one?
Vidyalayam.
Vidyalayam na gatavan. Gatavan. Gatavan is the past tense of gacchati. So he says, I did not go to school. That's what he says. Of course, the father knows, but here's just a conversation. Aham vidyalayam na gatavan. So Pita is saying, Bhavatu, okay, I will teach you. Aham, Bhavan will become, so in the book you will see this, Bhavan.
Bhavantam.
Bhavantam. So this is actually Bhavan. Bhavan became Bhavantam. Bhavatim. What became Bhavatim?
Bhavati.
Bhavati. Bhavati. What became mom?
Mama.
Aham.
No, aham, aham.
Aham. Aham became ma. Aham, aham asmi, maam pashyatu. Okay? Aham asmi, maam vadatu. Talk to me. But one word of caution, we never use it with dadati. For dana kriya, we don't use dvitiya vibhakti. We don't say, give it to me, maam dadatu. So for all other kriyas which has an object, we can use it. So this is actually tam. Saha became tam. What became etam?
Eshaha.
Eshaha. Samichena. What became kam?
Kaha.
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 Same way. What became tam?
Sa.
Sa. Etam?
Esha.
Esha. Esha. Kam?
Ka.
Ka.
Ka. Ka. Samichena. So this stays as tat, etat and kim. Napumsakalingam, there is no change. Okay? So let's continue here. I'll go like this so you can see. Aham bhavantam patayami. I will teach you. Bhavantam patayami. So the putra is saying, Satyam. Oh, really? Bhavan. So how will you change aham?
Mam patayati.
Bhavan mam patayati. You are going to teach me. Then Pita is saying, Aam, patayami. Yes, I will teach you. Putri is telling, Tata. Tata is a casual way of saying daddy. Hey, daddy. Now she is saying something. What is she saying?
Maam api patayatu.
Maam api patayatu. Astu. So we'll take turns, okay? So Mahodaya, Pita is telling, Astu. How will you do this? Bhavatim api patayami. So he is telling the daughter, Bhavatim api patayami. Putrah is telling, Kada patayati? When will you teach me? Pita is telling, Idani. Can you complete it?
Bhavantam
patayami. इदानीं भवन्तं पाठयामि. नौ ऐ विल् टीच्. इदानीं मीन्स् नौ. नौ ऐ विल् टीच् यु. पुत्रः इस् टेलिङ्ग्. सो भगिनी, केन् यु डू दिस् वन्?
अनुजां कदा पाठयति?
अनुजां कदा पाठयति? अनुजां मीन्स् यङ्गर् सिस्टर्. अनुजां कदा पाठयति? वेन् विल् यु टीच् हर् अनुजां? अनुजां कदा पाठयति? अण्ड् देन् पिता इस् टेलिङ्ग्. तां सायङ्काले पाठयामि. ओके, सो इस्टर्डे. सो इस् वदतु. सो केन् यु कम्प्लीट् दिस् वन्? कः पाठः पाठयामि?
कं पाठं पाठयामि?
कं पाठं. सो विच् लेसन् शुड् ऐ टीच्? कं पाठं पाठयामि? अस्तु महोदय.
पुत्रः एतं
पाठं पाठयतु. समीचीनम्. एतं पाठं पाठयति. सो हि शोयिङ्ग् समथिङ्ग्. एतं पाठं पाठयतु. सो हियर् दे आर् गोयिङ्ग् टु बहुवचनं विच् इस् नाट् गिवन् हियर्. सो इट् बिकम्स् ऐहि लैक् दट्. पिता नो 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 इट् बिकम्स् आन्. सर्वान् पाठान् पाठयामि. ओके, सर्वान् पाठान् पाठयामि. That's what he says over there. Sarvan patan pataya. Okay. So what comes next? Purataha pashtata. Astu. So any questions in this?
No, Bhagini.
No.
Astu. So maybe I'll send you another homework. I don't know. Sarvanama padam. No, this is finished. Yeah, it's the same thing. Sorry, it's the same thing. I have one more I want to share. No, astu. So if I find that file, I will send you. Okay. So basically, this is the summary. Saha will become tam. Kaha will become kam. एषः विल् बिकम् एतम्. ओके, अस्तु. सः विल् बिकम् तम्. कः विल् बिकम् कम्. तत् विल् स्टे एस् तत्. किं विल् स्टे एस् किम्. एतत् एतत् एव. सा विल् बिकम् ताम्. का विल् बिकम् काम्. एषा विल् बिकम् एताम्. भवान् विल् बिकम् भवन्तम्. भवती बिकम् भवतीम्. अहं विल् बिकम् माम्. एनी क्वेश्चन्स् हियर्? अस्तु. The some other classes are showing YouTube videos. So this is a good thing. So Sankhya, to show Sankhya. Are you interested in seeing these videos or no?
Yes, Bhagini, but volume is not coming.
Oh.
Actually, you can share the link and we can watch it. Hello. Hello.
Yeah, I can
Bhagini,
hear
can you,
you
hear
but,
me?
Probably Radhika Bhagini is not able to hear us.
Are you able to hear me?
I can hear you, but probably not.
Okay. No, Bhagini, we are not able to hear you. Namaste Bhagini, can you hear me now?
Can you hear me now?
Yes, Bhagini, yes, we can hear you.
Okay, yeah, I went and I came back. Yeah. Okay. So this is some of the videos.
You can actually share the link along with the homework.
Okay.
And we can see the videos, and if we have any doubt, we can ask you in the next class.
Okay. That will be good. So if you go to the Vedika, okay, so they have a lot of ones for children, actually. Vedika Sanskrit rhymes. I will share the link, and then with that link, you will see many other ones. I don't want to play it now, parantu avayavah iti asti, anantaram sankhya vishaye asti, bahavah asti. Ayanam pata. Astu, prashnah na santi chet virama mahava. अस्तु 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 शान्तिमन्त्रं वदामः अनन्तरं विरमामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. अस्तु धन्यवादः.
धन्यवादः भगिनी. सो नेक्स्ट् क्लास् इट् विल् बि एट् सिक्स् इण्डिया टैम् 6 o'clock.
आम् आम् इण्डिया टैम् 6 o'clock. अस्तु.
Thank you.
Thank you, buddy.
Thank you.